इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः स्वनिवासे भारतसर्वकारस्य सचिवैः सह तृतीय उच्चस्तरीय उपवेशनस्य अध्यक्षता कृता, तथा च आधारभूतसंरचना, सम्पर्कं, सुरक्षा, विदेशकार्यं तथा शासनम् इत्येतैः सम्बद्धानां मन्त्रालयानां विभागानां च भाविकार्यसूच्यां चर्चापि कृता। सः सचिवान् देशस्य भविष्यं कथं भवितव्यम् इति दीर्घकालिकदृष्टिकोणेन चिन्तयितुम् उद्बुद्धवान्। अधिकान्तरसक्रियता तथा दत्तांशस्य प्रभाविप्रयोगस्य आह्वानं कुर्वन् श्रीमोदी अवदत् यत् दत्तांशः राष्ट्रियसम्पत्तिः, भविष्यस्य संसाधनं च अस्ति। सः देशस्य रक्षा उद्यमं सुदृढीकरणस्य आवश्यकतायाः विषयेऽपि अवधानं प्रदत्तवान्, तथा च वैश्विकस्तरे अधिकप्रतिस्पर्धात्मकं कार्यं च कर्तुं प्रैरयत्। सभायां सचिवाः क्षेत्रीय प्राथमिकतासु, उदयोन्मुख प्रतिसन्धिषु, कार्यान्वयनविषयेषु च स्वानुभवान् विनिमयी कृतवन्तः। मन्त्रिपरिषदीय सचिवः, प्रमुखमन्त्रालयानां विभागानां च सचिवाः, प्रधानमन्त्रिकार्यालयस्य वरिष्ठाधिकारिणश्च अस्यां सभायाम् उपस्थिताः आसन्। भारतस्य आधिकारिकयात्रायाम् आगतः जापानदेशस्य रक्षामन्त्री सिन्जिरो कुइजुमी ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृतवान्। भारत जापान देशयोः मध्ये विशेष सामरिक वैश्विक सहभागित्वं सुदृढीकरणाय स्वस्व दृष्टिकोणस्य आदान प्रदानं कृतवन्तौ। भारत प्रशान्त क्षेत्रे तथा च बहिः शान्तिः, स्थिरता, समृद्धिः च वर्धयितुं भारत जापान रक्षा सुरक्षा सहकारस्य महत्त्वमपि अधोरेखितवन्तौ। श्रीमोदिना रक्षाक्षेत्रे विशेषतः मेक इन इंडिया इत्यस्य आश्रये सह विकासस्य, सह उत्पादनस्य च कृते भारतीय समवायैः, स्टार्टअप इत्येतैः च सह सहभागित्वं कर्तुं जापान देशस्य कृते अवसराः निरूपितम्। रक्षामन्त्री कोइजुमी वर्यः द्वैपाक्षिक रक्षा सहकारस्य प्रगति विषये अवदत् यत् भारतेन सह सम्बन्धं सुदृढं कर्तुं जापान सर्वकारस्य निरन्तर प्रतिबद्धतां पुनः दृढीकृतवान्। भारतम् अद्य पुणेनगरे द्वादशमं ब्रिक्स सम्प्रेषण मन्त्रिणां सम्मेलनम् आयोजयति। अस्याः सभायाः अध्यक्षः केन्द्रीय संचार मन्त्री ज्योतिरादित्य सिंधिया वर्यः भविष्यति। सभायां ब्रिक्स सदस्य राष्ट्राणां सम्प्रेषण मन्त्रिणः, वरिष्ठ प्रतिनिधयः च आईसीटी इति संगृह्य सूचना सम्प्रेषण प्रौद्योगिकीनां, डिजिटल परिवर्तनस्य, नवान्वेषणस्य, संरचनायाः च विषये सहकारं सुदृढं कर्तुं चर्चां करिष्यन्ति। अयं कार्यक्रमः ब्रिक्स सदस्य राष्ट्राणां कृते उदयोन्मुख प्रौद्योगिकीनां, डिजिटल सार्वजनिक संरचनायाः, साइबर सुरक्षायाः, क्षमता निर्माणस्य, समावेशि डिजिटल सम्पर्कस्य च विषयेषु विचाराणाम् आदान प्रदानाय मञ्चं प्रददाति। राष्ट्रिय परीक्षण संस्थया NTA इत्यनेन उक्तं यत् तस्य आंसर की चैलेंज इति पद्धति सर्वेषां छात्राणां कृते निष्पक्षतया परिकल्पिता अस्ति, तथा च तस्य व्ययस्य विषये चिन्तामपि निराकृतम्। NTA इत्यस्य आंसर की चैलेंज इति एका ऑनलाइन इति आभासीय प्रक्रिया अस्ति, यत्र परीक्षार्थिनः अस्थायी आंसर की इत्येतस्मिन् त्रुटयः अन्वेष्टुं शक्नुवन्ति। इति वार्ताः।